विरदशिखरिसीन्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्याम् श्यामलोहव्यवाहः कलशजलधिकन्या वल्लरी कल्पशाखी कलयत् कुशलम् नः कोऽपि कारुण्यराशिः विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्याम् श्यामलोहव्यवाहः कलशजलधिकन्या वल्लरी कल्पशाखी कलयत् कुशलम् नः कोऽपि कारुण्यराशिः यस्यानुभावमधिगन्तुमशक्नुवन्तः मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करिशैलनाथ जानन्ननादिविहितान् अपराधवर्गान् स्वामिन् भयात् किमपि वक्तुमहम् न शक्तः अव्याजवत्सल तथापि निरङ्कुशम् माम् वात्सल्यमेव भवतो मुखरीकरोति किम् व्याहरामि वरदस्तुतये कथम् वा कद्योतवत्प्रलघुसङ्कुचितप्रकाशः तन्मे समर्पय मतिम् च सरस्वतीम् च त्वामञ्जसा स्तुतिपदैर्यदहम् दिनोमि मच्छक्तिमात्रगणने किमिहास्ति शक्यम् शक्येन वा तव करीष किमस्ति साध्यम् यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद्भवति किञ्चिदनीहमाने स्तोत्रम् मया विरचितम् त्वदधीनवाचा त्वत्प्रीतये वरद यत्तदिदम् न चित्रम् आवर्जयन्ति हृदयम् खलु शिक्षकाणाम् मञ्जूनि पञ्चरश कुन्त विजल्पितानि यम् चक्षुषामविषयम् हयमेदयज्वा द्रागीयसा सुचरितेन तदश्च वेदाः तम् त्वाम् करीष करुणा परिणामतस्ते भूतानि हन्त निखिलानि निशामयन्ति तत्तत्पदैरुपहिते पितुरङ्गमेदे शक्रादयो वरद पूर्वमलब्धभागाः अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यगर्भः विशाम् रसमन्वभूवन् सर्गस्थिति प्रलय विभ्रमनाटिकायाम् शैलोषवद्विविधवेश परिग्रहम् त्वाम् सम्भावयन्ति हृदयेन करीषधन्याः संसारवारिनिधि सन्तरणैकपोतम् प्राप्तोदयेषु वरद त्वदनुप्रवेशात् पद्मासनादिषु शिवादिषु कञ्चुकेषु तन्मात्र दर्शन विलोभित शेमुषीकाः तारात्म्यमूढमतयो निपतन्त्यधीराः मध्ये विरञ्चि शिवयोर्विहितावतारः ख्यातोऽसि तत्समतया तदिदम् न चित्रम् मायावशेन मकरादिशरीरिणम् त्वाम् तानेव पश्यति करीषयतेष लोकः ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडिति आत्मेति सर्वमिति सर्वचराचरात्मन् हस्तीश सर्ववचसाम् अवसान सीमा त्वाम् सर्वकारणमुशञ्चनपायवाचः आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि अव्याहता विधि निषेधमयी तवाज्ञा हस्तीश नित्यमनुपालन लङ्घनाभ्याम् पुंसाम् शुभाशुभमयानि फलानि सूते त्रातापतिस्थितिपदम् भरणम् प्ररोहः छायाकरीश सरसालि फलानि च त्वम् शाकागत त्रिदश बृंद शकुंतकानाम् किं नामनासि महताम् निगमद्रुमाणाम् सामान्य बुद्धि जनकाश्च सदा दिशब्दाः तत्त्वान्तर ब्रह्म कृतश्च शिवादिवाचः नारायणे त्वयि करीश वहन्त्यनन्यम् अन्वर्थवृत्ति परिकल्पितमैककण्ठ्यम् सञ्चिन्तयन् च किल हेय विपक्षभूतम् शान्तोदितम् शमवता हृदयेन धन्याः नित्यम् परम् वरद सर्वगतम् सुसूक्ष्मम् निष्पन्दनन्दतुमयम् भवतः स्वरूपम् विश्वादिशायि सुखरूप यदात्मकस्त्वम् व्यक्तिम् करीश कथयन्ति तदात्मिकान्ते येनातिरोहति मतिस्त्वदुपासकानाम् सा किम् त्वमेव तव वेति वितर्कडोला मोहान्धकार विनिवर्तन जागरूके दोषादिवापि निरवग्रहमेधमाने त्वत्तेजसि द्विरजशैलपते विमृष्टे श्लाघे दसन्तमस पर्वसहस्रभानोः रूढस्य चिन्मयतया हृदये करीश स्तम्भानुकारि परिणाम विशेषभाजः स्थानेषु जाग्रति चतुष्वपि सत्त्ववन्तः शाखा विभाग चतुरे तव चातुरात्म्ये नागाचलेश निखिलोपनिषन्मनीषा मञ्जूषिकामरगतम् परिचिन्वताम् त्वाम् तन्वीहृति स्फुरति कापि शिका मुनीना सौदामनीव निवृता नवमेघ गर्भा औदन्वते महति सद्मनि भासमाने श्लाघे च दिव्य सदने तमसः परस्मिन् अन्तःकळे परमिदम् सुषिरम् सुसूक्ष्मम् जातम् करीश कथमातरणास्पदम् ते बालाकृतेर्वटबलाशमितस्य यस्य ब्रह्माण्डमण्डलमभूत् उदरैकदेशे तस्यैव तद्वरद हन्त कथम् प्रभूतम् वाराहमास्थितवतो वपुरद्भुतम् ते भक्तस्य दानवशिशो परिपालनाय भद्राम् नृसंहगुहना मतिजग्मुषस्ते स्तम्भैकवर्जमधुनापि करीश नूनम् त्रैलोक्यमेतदखिलम् नरसिंहगर्भम् क्रामम् जगत्कपटवामनतामुपेतः त्रेधा करीश स भवान्निददे पदानि अध्यापि जन्तव इमे विमलेन यस्य पादोदकेन विधृतेन शिवा भवन्ति येनाचल प्रकृतिना रिपुसंक्षयार्ति वारान्निधिम् वरद पूर्वमलङ्घयस्त्वम् तम् वीक्ष्यसेतु मधुनापि शरीरवन्तः सर्वे षडूर्मि बहुलम् जलधिम् तरन्ति इत्थम् करीश दुरपन्नव दिव्य भव्य रूपान्वितस्य विबुदादि विभूति साम्यात् केचित् विचित्र चरितान् भवदोऽवतारान् सत्यान्तया परवशस्य विदन्ति सन्तः सौशील्य भावितदिया भवता कथञ्चित् सञ्चातितानपि गुणान् वरद त्वदीयान् प्रत्यक्षयन्त्यविकलम् तव सन्निकृष्टाः पत्युस्त्विषामिव पयोदवृतान्मयूकान् नित्यम् करीषतिमिराविलदृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः पश्यन्त्युपर्युपरि सञ्चरतामदृश्यम् माया निगूढमनपाय महानिधिम् त्वा సత్యస్త్యజంతి వరద త్వయి బద్ధ భావాః పైతామహాదిషు పదేష్వపి భావబంధం కస్మై స్వదేత సుఖ సంచరణోత్సుకాయ కారాగృహే కనక శృంగలయాపి బంధః హస్తీశ దుఃఖ విషదిగ్ధ ఫలానుబంధిని ఆ బ్రహ్మ కీడమపరాధ సంప్రయోగే దుష్కర్మ సంజయ వశా దురదిక్రమేణః ప్రత్యశ్రమంజలిరసౌ తవ నిగ్రహాస్త్రే త్వద్భక్తిపోతమవలంబితుమక్షమాణాం పారంపరం వరద గంతుమనీశ్వరాణాం స్వైరం లిలంగయిషతాం భవవారిరాశిం త్వామేవ గంతుమసి సేతురభంగురస్త్వం అశ్రాంత సంసరణ కర్మని పీడితస్య భ్రాంతస్య మే వరద భోగమరీచికాసు జీవాతురస్తు నిరవగ్రహమేధమానః దేవత్వదీయ కరుణామృత దృష్టిపాతః అంతఃప్రవేశ్య భగవన్ అఖిలస్య జంతోః ఆసేదుషస్తవ కరీష ప్రసం దవీయాన్ సత్యం భవేయమధునాపి స ఏవ భూయః స్వాభావికీ తవ దయా యదినాంతరాయః అజ్ఞాత నిర్గమమనాగమ వేదినం మాం అంతం న కించిదవలంబనమశ్నువానం ఏతావతీం గమయిదు పదవీం దయాళోః శేషాద్వలేశ నయనేక ఇవాతి భారః భూయోపి హంత వసదిర్యది మే భవిత్రే యామ్యాసు దుర్విషః వృత్తిషు యాతనాసు సమ్యగ్ భవిష్యది దదః శరణాగతానాం సంరక్షితేతి బిరుదం వరద త్వదీయం పర్యాకులం మహతి దుఃఖపయోనిదౌ మాం పశ్యన్ కరీషయతి జోషమవస్థితస్త్వం స్పారేక్షణేపి మిషది త్వయి నిర్నిమేషం పారే కరిష్యతి దయా తవ దుర్నివారా కిం వా కరీష కృపణే మయి రక్షణీయే ధర్మాది బాహ్య సహకారి గవేషణేన నన్వస్తి విశ్వ పరిపాలన జాగరూకః సంకల్ప ఏవ భవతో నిపుణ సహాయః నిర్యంత్రణం పరిణమంతి నయావదేతే నీరంద్ర దుష్కృత భవా దురిత ప్రరోహాః తావన్న చేత్వముపగచ్చసి సాంగదన్వా శక్యం త్వయాపి నహి వారయితుం కరీష యావన్న పశ్యతి నికామమమర్షణో మాం భ్రూభంగ భీషణ కరాళ ముఖః కృతాంతః తావత్ పతంతు మయి తే భగవన్ దయాళోః ఉన్నిద్ర పద్మ కలికా మధురాః కటాక్షాః సత్వం స ఏవ రభసో భవదౌపవాహ్యః చక్రం తదేవ సితదారమహం చ పాళ్యః సాధారణే త్వయి కరీష సమస్త జంతోః మాతంగమానుష విదాన విశేష హేతుః నిర్వాపయిష్యతి కదా కరిశైలధామన్ దుర్వార కర్మ పరిపాగ మహాదవాగ్నిం ప్రాచీన దుఃఖమపి మే సుఖయన్నివ త్వత్పాదారవింద పరిచార రస ప్రవాహః ముక్త స్వయం సుకృత దుష్కృత శృంఖలాభ్యాం అక్షర్ముఖైరధికృతైరధివాహితాధ్వా స్వచ్ఛంద కింకర దయా భవత కరీష స్వాభావికం ప్రతి లభేయ మహాధికారం త్వం చేత్ ప్రసీదసి తవాస్మి సమీపదశ్చేత్ త్వయ్యస్తి భక్తిరనగా కరిశైలనాథ संसृज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन् अपवर्ग एव आहूयमानमनपाय विभूतिकामैः आलोकलुप्तजगदाञ्जमनस्मरेयम् आलोहिताम् शुकमनाकुलहेति जालम् हैरण्यगर्भहयमेदहविर्भुजम् त्वा भूयो भूय पुलकनिचितैरङ्गकैरेदमानाः स्थूलस्थूलान्नयनमुकुलैर्बिभ्रतो बाष्पबिन्दून् धन्या केचिद्वरदभवदः संसदम् भूषयन्तः स्वान्तैरन्तर्विनयनिभृतैः स्वादयन्ते पदम् ते वरद तव विलोकयन्ति धन्याः मरगदभूतरमातृकायमाणम् व्यपगदपरिकर्मवारवाणम् मृगमदपङ्कविशेषनीलमङ्गम् अनिभृतपरिरम्बैराहितामिन्दिरायाः कनकवलयमुद्राम् कण्ठदेशे ददानः पणिपति शयनीयादुत्थितस्त्वम् प्रभाते वरद सततमन्तर्मानसम् सन्निधेयाः तुरगविहगराजश्चन्दनान्दोलिकादिषु अधिकमधिकमन्यामात्मशोभाम् ददानम् अनवधिकविभूतिम् हस्तिशैलेश्वरम् त्वा अनुदिनमनिमेषैर्लोचनैर्निर्विषेयम् निरन्तरम् निर्विशदस्त्वदीयम् अस्पृष्टचिन्तापदमाभिरूप्यम् सत्यम् शपे वारणशैलनाथ वैकुण्ठवासेऽपि न मेऽभिलाषः व्यातन्वाणात्तरुणतुलसी धामभिस्वामभिख्याम् मातङ्गात्रौ मरगतरुचिम् पुष्णती मानसेनः भोगेश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः भूयस्यामा भुवनजननी देवता सन्निधत्ता इति विहितमुदारम् वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदम् यस्तोत्रमङ्गीकरोति करिशिकरिविटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषम् तस्य हस्तापचेयम् इति विहितमुदारम् वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदम् यस्तोत्रमङ्गीकरोति करिशिकरिविटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषम् तस्य हस्तापचेयम्।